गायत्री त्रयक्षराम्बालां साक्षसूत्र कमण्डलुं रक्तवस्त्रां चतुर्हस्तां हंसवाहन संस्थितां ऋग्वेदे च कृतोत्सङ्गा सर्वलक्षणसंयुता ब्रह्माणि ब्रह्मदेवत्यां ब्रह्मलोकनिवासिनीं आभ्यामि अहं देवीं आयान्ति सूर्यमण्डलात् आगच्छ वरदे देवी त्र्यक्षरे ब्रह्मवादिनी गायत्री छन्दसां मातर् ब्रह्मयोनी नमोऽस्तु ते गायत्री तु सुकृतं स्मृत्वा जपलक्षफलं भवेत् गायत्री दशधा जप्त्वा दशलक्षफलं भवेत्।